एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रतिनिधिसभायाः स्थने उपवेशे विभिन्नानि चत्वारि विधेयकानि प्रस्तुतानि सन्ति उपवेशे प्रधानमन्त्रिणः बालेन्द्र सहस्य पक्षतो विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतम इत्यनया एतद् विक्रमवश्यम् सांविधानिक निकायानां पदाधिकारिणां पारिश्रमिक सेवा सौविध्य सम्बद्धम् प्रथम संशोधन विधेयकम् प्रस्तुतमस्ति एवमेव परराष्ट्र मन्त्रिणा शशिरखनालेन एतद् विक्रमवर्षीयम् पारपत्र विधेयकम् उद्योग वाणिज्यापूर्ति मन्त्रिणा गौरी कुमारी इत्यनया एतद् विक्रमवर्षीयम् खनि खनिज पदार्थ सम्बद्धम् विधेयकम् महिला बाल बालिका लैंगिका अल्पसंख्यक सामाजिक सुरक्षा मन्त्रिणा सीतावादी इत्यनया मानव क्रय विक्रयण नयनानयन नियन्त्रण सम्बद्धम् प्रथम संशोधन विधेयकम् च प्रस्तुतानि वर्तन्ते ह्यस्तनोपवेशे राज्य व्यवस्था सुशासन समितेः सभापतिः हरि ढकालः द्वाचत्वारिंशदुत्तर द्विसहस्रतम विक्रमवर्षीयम् नेपाल विशेष सेवाधिनियमम् पुनरुज्जीवयितुम् निर्मितायाः एतद् विक्रमवर्षीयायाः विधेयक सम्बद्ध समितेः प्रतिवेदनम् प्रास्तौत् प्रतिनिधिसभायाः स्तनोपवेशे सांसदाः देशस्य विभिन्नेष् स्थानेष् दुरापन्नास् दुर्घटनास् प्राकृतिक विपत्स् विभिन्नेष् सामयिक विषयेष् च सर्वकारस्य ध्यानाकर्षणम् विहितवन्तः उपवेशे उपचारस्य अभावेन सुनकोशी नद्याम् विलुप्तयोः दम्पत्योः अन्वेषणाय ध्यानम् दातुम् सांसदैः सर्वकारस्य ध्यानाकर्षणम् विहितम् एवमेव सांसदः कृषिमलस्य पाचन इन्धनस्य अन्येषाम् दैनिकोपभोग्य वस्तूनाम् च आपूर्तिम् सहजाम् विधातुम् आपणेष् अनुगमनम् कर्तुम् तराई क्षेत्रस्य जनपदेष् सर्पदंशस्य उपचारम् सहजम् विधातुम् च सर्वकारस्य ध्यानाकर्षणम् विहितवन्तः उपवेशे विपक्षी दलानाम् सांसदः प्रधानमन्त्रिणः बालेन्द्र सहस्य अभिव्यक्तिम् परिमार्जयितुम् यासनाम् विधाय विरोधम् प्रकटितवन्तः सांसदः तराई मधेस क्षेत्रेष् हिन्दू मुस्लिम समुदायमध्ये वर्धमानायाः चिन्तायाः अन्त्याय दायित्ववाहितया कार्यम् कर्तुम् सर्वकारस्य ध्यानाकर्षणम् विहितवन्तः उपवेशे वाणिज्यापूर्ति मन्त्रिणा गौरी कुमारी इत्यनया पूर्ववत् पाचन इन्धनस्य आयातम् जायमानम् सदपि वितरण प्रणाल्याः परिवर्तनेन असन्तोलनम् दृष्टमस्तीति उक्तम् वर्तते मन्त्री यादवः अधुना देशस्य आन्तरावश्यकताम् पूरयितुम् पाचन इन्धनस्य आयातम् जायमानम् सदपि उपभोक्तृभिः युगपदेव पाचन इन्धनस्य याचनाया विधानात् आपणेषु समस्या दृष्टास्तीति उक्तवती भौतिक पूर्वाधार विकास मन्त्रिणा सुनील लम्सालेन अव्यवस्थितावासानाम् भूमिहीनानाम् च जनानाम् समस्यानाम् समाधानाय पृथक् विधेयकमानीय दीर्घकालिक रूपेण समाधानस्य प्रारूपम् निर्मीयमाणमस्तीति उक्तम् वर्तते रूपन्देही जनपदस्य रोहिणी ग्रामपालिकायाम् भूस्वामित्व पत्र वितरण कार्यक्रमे मन्त्री लम्सालः स्थानीयानाम् समस्याम् परिचित्य सर्वकारेण दीर्घकालिक समाधानस्य रणनीतिः निर्मितास्तीति प्रावोचत् सूचना संचार मन्त्रालयेन एतद् विक्रमवर्षीयस्य मीडिया काउन्सिल नाम्नः संचार सम्बद्ध विधेयकस्य प्रारूपमाधृत्य संचार क्षेत्राणाम् सम्बद्ध पक्षैः विमृश्य परामर्शनानि संकलितानि सन्ति मन्त्रालयैः आयोजिते विमर्शने विभिन्नानाम् संचार माध्यमानाम् सम्पादकैः प्रतिनिधिभिश्च नेपाल पत्रकार महासंघेन प्रेस काउन्सिल इति संस्थया पत्रकारिता क्षेत्रस्य स्वतन्त्र संस्थानाम् च प्रतिनिधिभिश्च सह विमृष्टमस्ति विधेयके समाविष्टानाम् विषयाणाम् वर्तमान संचार क्षेत्रस्य समाहोयानाम् नियमनकारिण्या व्यवस्थायाश्च विषयेष् परामर्शनानि संकलितानि वर्तन्ते तदवसरे सूचना संचार मन्त्री डॉ विक्रम तिमिलसिन्हा सम्बद्ध निकायेभ्य प्राप्तानाम् परामर्शानाम् आधारेण उत्कृष्टम् क्रियान्वयन योग्यम् च विधेयकम् निर्मास्यते इति अवदत् मन्त्री डॉ तिमिलसिन्हा सर्वकारः संचार स्वतन्त्रताम् अभिव्यक्ति स्वतन्त्रताम् च प्रति पूर्ण प्रतिबद्धोऽस्तीति चर्चयन् संचार स्वतन्त्रतायाः सुनिश्चितताम् विना लोकतन्त्रम् सुदृढम् भवितुम् न शक्नोति इति धारणाम् व्यक्तवान् नेपाल दूरसंचार प्राधिकरणेन दूरभाष सेवायाः गुणस्तरस्याभिवृद्धये उपभोक्तृणाम् हितसंरक्षणाय प्रविधेः प्रभावकारिणे उपयोगाय स दूरसंचार सेवा प्रदायकम् अष्टसूत्रात्मकम् निर्देशनम् प्रकाशितम् अवर्तते पञ्चत्रिंशदुत्तर द्विसहस्रतम विक्रमवर्षस्य दूरसंचाराधिनियमस्य पञ्चदश प्रकरणस्य अनुसारेण प्राधिकरणस्य एतद् विक्रमवर्षीयस्य श्रावण मासस्य एकविंशे दिवसे सम्भूतस्य निर्णयस्य अनुसारेण निर्देशनमिदम् प्रदत्तमस्ति सर्वकारेण सुशासने प्राशासनिक सुधारे नीतिगत क्रियान्वयने विकास आयोजनानाम् अनुगमने विधि प्रतिरक्षायां च उल्लेखनीयं कार्यं विहितमस्तीति ज्ञापितं वर्तते। प्रधानमन्त्री मन्त्री परिषद कार्यालयेन गत वैशाख मासात् आषाढ मासान्तं यावत् वित्तीय क्षेत्रे उल्लेखनीया प्रगति अधिगता अस्तीति कार्यालयस्य प्रवक्ता हेमराज अर्याल असूचयत्। अस्मिन् नवदौ मन्त्री परिषद एकविंशत्याम् उपवेशेष् चतुरशीत्यधिक शतत्रय संख्यात निर्णय सम्भूता सन्तीति ज्ञापितं वर्तते। प्रधानमन्त्री मन्त्री परिषद कार्यालयेन सर्वकारस्य शतसूत्रीय कार्यसूची प्रभावपूर्ण क्रियान्वयनाय विभिन्न मन्त्रालयै निकायै सह समन्वयं साप्ताहिकीं प्रगति समीक्षां च समय एव विधातुं निर्देशनं प्रदाय तत्र सहजीकरणं च विहितमस्तीति ज्ञापितं वर्तते। परराष्ट्र मन्त्रिणा शिशिर खनालेन देशस्य परराष्ट्र नीतेः केन्द्रे आर्थिक कूटनीति वर्तते इत्युक्तमस्ति। यो ललितपुरे आयोजिते अन्तर्राष्ट्रिय सम्मेलने परराष्ट्र मन्त्री खनाल आर्थिक कूटनीतेः उद्देश्यं नेपाल नागरिकाणां जीवनस्तरे सुधारस्य आनयनमस्तीति अवोचत्। तदवसरे मन्त्री खनाल वाणिज्यस्य निवेशनस्य वृत्त्युपार्जनस्य उद्यमशीलतायाः पर्यटनस्य प्रविधेः नवप्रवर्तनस्य सबल विकासस्य च अवसराणां देशे सर्जनं विधातव्यमिति प्रावोचत्। सार्वजनिक सेवा प्रसारण नेपालस्य नवनियुक्तेन कार्यवाहकाध्यक्षेण उर्वशी बस्न्यात् इत्यनया नागरिकाणाम् अपेक्षायाः अनुसारेण सूचनायाः समाचारस्य कार्यक्रमाणां च उत्पादनं प्रसारणं च प्राथमिकतायां भवत इत्युक्तमस्ति। नवनियुक्तेन कार्यवाहकाध्यक्षेण बस्न्यात् इत्यनया ह्य पदभारं गृह्णन्त्या राज्यस्य प्राथमिकतायाः अनुसारेण सार्वजनिक सेवा प्रसारणेन सुशासनं प्राथमिकतायां संस्थाप्य जनापेक्षायाः सम्बोधकानां सामग्रीणां प्रसारणं विधेयमिति बलं दत्तमस्ति। अध्यक्ष बस्न्यात समाहोयानां मध्य अवसराणाम् उपयोगं विधाय सार्वजनिक सेवा प्रसारण नेपालेन नेपाल टेलिभिजनस्य रेडियो नेपालस्य च समाचार कार्यक्रमाणां विषयवस्तुषु प्रविधौ च महत्वपूर्ण सुधारो विधास्यते इति प्रतिबद्धताम् अभिव्यनक। कार्यक्रमे सार्वजनिक सेवा प्रसारण नेपालस्य कार्यवाहक प्रशासकीय अधिकृत आरती सचौत संस्थायाः आन्तरिक जटिलतायाः समाधानं विधाय सार्वजनिक सेवा प्रसारण नेपालेन राज्यं नागरिकांश प्रति स्वयं दायित्वं प्रपूर्यते इति उक्तवती। नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा संविधाने विद्यमानानां सामयिक विषयाणां संशोधनं सम्भवति परं तत्र विद्यमानां संवेदनशीलतां प्रति सावधानैर्भाव्यम् इत्यत्र बलं ददाति। नेपाल लोकतान्त्रिक आदिवासी जनजाति महासंघस्य द्वितीयं राष्ट्रिय सम्मेलनं पूर्वे द्युः काष्ठमण्डपे उद्घाटयन् सभापतिः थापा संविधानस्य संवेदनशीलतायाः उपेक्षया देशः दुर्घटनायां पतितुं शक्नोतीति धारणां व्यक्तवान्। इति समाचारः।